अपि स्वर्णमयीलङ्का न मे लक्ष्मण रोचते जननी जन्मभूमिश्च स्वर्गादपि गरीयसि। नमः श्रोतृवृन्देभ्यः, स्वागतमस्ति भवतां संस्कृत साप्ताहिकी दी कार्यक्रमे, यत्र वयं संस्कृत जगतः नानाविधान् ज्ञान संप्रिक्तान् हर्षाभिवर्धकान् घटनाक्रमान् वार्ताश्च शृण्मः। अहमस्मि कार्यक्रमस्य समुद्घोषकः कृष्णप्रसादोपाध्यायः। मान्याः, अस्मत् संस्कृतशास्त्रेषु नीतिपरकाणाम् उपदेशानां महत्तमः सङ्ग्रहः अस्ति। तस्मादेव सङ्ग्रहात् शृणुमस्तावत् अद्यतनं सुभाषितं मधुरस्वरेण च प्रस्तौति श्री पुनीत त्रिपाठीवर्यः।
सर्वमन्यत् परित्यज्य शरीरमनुपालयेत् तद्भावे हि भावानां सर्वाभाव शरीरिणाम्। अर्थात संसार से हमें जो भी पुरुषार्थ या कार्य करना है वह हम अपने स्वस्थ शरीर से ही कर सकते हैं। इसके अभाव में हर वस्तु का अभाव हो जाता है। इस प्रकार यह एक सर्वोत्तम धन है, अतः इसकी देखरेख सर्वोच्च प्राथमिकता से करनी चाहिए।
श्रीमते पुनीताय साधुवादाः। मित्राणि, मन्येऽहं स्मरन्ति भवन्तः प्रसङ्गः इति अस्ति अग्रिमा प्रस्तुतिः। चलामस्तावत् सुरेश शर्मणं प्रति, यो हि इदानीं सन्नद्धोऽस्ति प्रसङ्गस्य प्रस्तावनाय। सुमधुरस्वरेण च प्रस्तौति प्रसङ्गमेकम्।
सानन्दमानन्दवने वसन्तम् आनन्दकन्दम् हतपापवृन्दम् वाराणसीनाथमनाथनाथम् श्रीवेश्वनाथम् शरणम् प्रपद्ये श्रीवेश्वनाथम् शरणम् प्रपद्ये अवन्तिकायां विहितावतारम् मुक्ति प्रदाना यच सह जनानां अकाल मृत्योः परिरक्षणार्थम् वन्दे महाकाल महासुरेशम् वन्दे महाकाल महासुरेशम्।
साधु साधु साधु। सुमधुरं श्रावितं श्रीमता शर्मणा, साधुवादाश्च तस्मै। सम्मान्याः श्रोतारः, अस्मात् प्रसङ्गात् अनन्तरम् अधुना अग्रेसरामः, यत्र आसप्ताहं प्रसार्यमाणाभिः वार्ताभिः सह प्रस्तुतास्ति रिचा झावरिया।
प्रधानमन्त्री नरेन्द्र मोदी प्रतिपादितवान् यत् भारते कथाकथनस्य समृद्धा परम्परा तथा सृजनात्मक प्रतिभायाः विपुलः निधिः वर्तते, यस्य उपयोगेन भारतं वैश्विक सामग्री निर्माणस्य प्रमुख केन्द्र रूपेण विकसितुं शक्यते। प्रधानमन्त्रिणा सामाजिक संचार पटले संसूचितं यत् नेटफ्लिक्स इत्यस्य सह मुख्य कार्यकार्यधिकारिणा सह असौ मेलनं कृत्वा भारतस्य मनोरञ्जन क्षेत्रस्य विशाल सम्भावना विषये विस्तृत विचार विमर्शं कृतवान्। संसदा 26,2000 सर्वोच्च न्यायालयस्य संशोधन विधेयकं पारितम्। अनेन विधेयकेन भारतस्य मुख्य न्यायाधीशं विहाय सर्वोच्च न्यायालयस्य न्यायाधीशानां संख्या वर्तमानात् 33 इत्यतः 37 यावत् वर्धयितुं सर्वोच्च न्यायालयाधिनियमः 56,19,00 इत्यस्मिन् संशोधनं करोति। नवदिल्ल्यां सीडी देशमुख व्याख्यानं 20-26 इति कार्यक्रमं सम्बोधयन्ती केन्द्रीय वित्तमन्त्री निर्मला सीतारमण उक्तवती यत् प्रशासनस्य महत्वाकांक्षा अस्ति यत् आधुनिक प्रगतिः संस्कृति परम्परयोः आधारिता भवेदिति।
धन्यवादाः ऋचायै। साप्ताहिकवार्ताभ्यः पश्चात् वयं ज्ञान विज्ञान निदर्शन प्रभागं प्रस्तौमः। अद्य एतस्मिन् उपक्रमे साक्षात्कारार्थम् अस्माभिः सह अतिथिरूपेण समुपस्थिताः सन्ति श्री श्री विश्वप्रसन्नतीर्थस्वामिपादाः। एतेषां पुण्यपुरुषाणां विषये उक्त्वा तेषां साक्षात्कारञ्च स्वीकरोति सुश्री निधि झावरिया।
सर्वेभ्यः श्रोतृभ्यः नमस्काराः। अद्य ज्ञानविज्ञानप्रभागे श्री श्री विश्वप्रसन्नतीर्थस्वामिनः कर्णाटकराज्यस्य उडुपिक्षेत्रस्य अष्टसु मठेषु अन्यतमस्य श्री पेजावर अधोक्षजमठस्य नवत्रिंशत्तमाः पीठाधिपतयः सन्ति। एते पूज्यानां श्री विश्वेशतीर्थस्वामिनः उत्तराधिकारिणः श्रीमन्मध्वाचार्य प्रवर्तितायाः द्वैत वेदांत परंपरायाः ध्वजवाहकाश्च सन्ति। एते चतुर्वेदानां वेदांत शास्त्रस्य च नदीष्ण विद्वांसः कन्नड संस्कृत तुलु हिन्द्यादि बहुभाषा कोविदाः च सन्ति। राममन्दिरस्य निर्माणयज्ञे एतेषां योगदानम् अत्यन्तं श्लाघनीयं वर्तते। एतैः उडुपि क्षेत्रे प्रह्लाद गुरुकुलं नीलावरे च चतुःसहस्रतोप्यधिकानां वृद्ध धेनूनां रक्षणाय सुविशाला गोशाला संस्थापिता। भक्ति ज्ञान सेवानां पथ दर्शकाः एते स्वामिनः धर्म प्रचारं समाज सेवां उज्जत जीवन शैलीं च अनुसरन्तः सर्वान् प्रेरयन्ति। महोदयानाम् आकाशवाणी पक्षतः इयम् निधेजा स्वागतं व्याचष्य। आदौ तावत् प्रथमः प्रश्नः, आचार्याणां श्री श्री विश्वेशतीर्थ पूज्य पादानां प्रतिष्ठा कीर्तिः सनातन धर्मस्य सेवा च अशेषी हि विश्वे प्रथिता एव। गुरु शिष्ययोः तस्मिन् अति गभीरे आध्यात्म सम्बन्धे का तादृशी घटना गुह्यः उपदेशो वा तेषां व्यक्तित्वस्य तादृशः पक्षः अस्ति यं केवलं पूज्य चरणाः एव जानन्तु।
अस्मत् गुरवः श्री श्री विश्वेशतीर्थ श्रीमच्चरणाः तेषां बहुमुखं कार्यं सामाजिककार्यं वा आध्यात्मिककार्यं वा सर्वे जानन्ति। तेषाम् आचारनिष्ठा सा तु बाह्यजनानाम् अपरिचितः एव, यतोहि सः आचारः। धर्मं चर इति सत्यं वद, धर्मं चर इति उपदेशः वर्तते। धर्मज्ञानं धर्मचरणाय, न केवलं प्रवचनाय। यतिर्भूत्वा त्रैकालिक सन्ध्यावन्दन अनुष्ठानादिकं व्रतोपवासादिकं तत्त्वनिष्ठा इदं सर्वमपि तेषाम् अतुलं। सामाजिकसभायां ते भागं लब्ध्वा तत्र तिष्ठन्ति, उपन्यासादिकं सर्वं सञ्जायते। तादृश समये अपि ते आध्यात्मचिन्तने व्यस्ताः। यत्र कुत्रापि पश्यन्तु स्तोत्रपारायणादिकं कुर्वन्तः एव। सर्वत्र गमनेन सर्वत्रापि गन्तव्यं भवति। स्वनिष्ठा आकारादिकं कथं सम्पाद्यं? रात्रिः एकादशवेलायां द्वादशवेलायां पर्यन्तमपि अवकाशः वर्तते इति आह्निकादिकं समाप्यैव ते विश्रान्तिम् अलभन्। वयं तु दक्षिणात्याः एतादृशम् औष्ण्यं वा शैत्यं वा तत्र नास्ति। यदा कदापि अत्र आगच्छन्ति चेत् शैत्यकालेपि रात्रावपि द्वादशपर्यन्तम् अपि स्नानादिकं कृत्वा नित्य आह्निकादिकं समाप्यैव स्वापं लभ्यते। एतादृशी आचारनिष्ठा बाह्यतः न ज्ञायते। उपवासादिकं यत्र क्वचन कदाचन उपविश्य द्वादशी एकादश्यां निर्जलम् उपवासः, द्वादश्यामपि तथैव। तेषां वयः सर्वे जानन्ति, अष्टवर्षीयाः सन्यासं ते श्रीचकार ते च अष्टाशीति वर्षपर्यन्तमपि व्रतोपवासादिकं प्रत्यहं ते अकुर्वन्। एतादृशनिष्ठा तेषां बाह्यतः न ज्ञायते, ये तु अन्तः समीपे तिष्ठन्ति तेभ्य एव।
श्रीमन्मध्वाचार्यैः संस्थापितः द्वैतवेदान्तः यथा दक्षिणभारते व्याप्तिम् अवाप्नोत् तथा उत्तरे न दृश्यते तेषां व्याप्तिः।
एवं वर्तते इदानीम् अत्र उत्तरदेशेपि गौडदेशीयाः ते सर्वे मध्वाचार्यसम्प्रदायः प्रवर्तकाः एव। इदानीं इस्कान् इति संस्था या वर्तते सापि श्रीमध्वाचार्यैः आरब्धा एव। संस्था नाम तु उपरितः न लब्धं, परन्तु तेषां शिष्यत्वमेव स्वीकृत्य ते तदेव तत्त्वं स्वीकृत्य ते इदानीं प्रचारं कुर्वन्ति। अपि च मीराबाई इत्यादिकाः या सन्ति ताः अपि एतशिष्याः सम्प्रदायशिष्याः इत्येव इदानीं जायते। अत्र तिजारा मध्ये त्रिगर्तप्रदेशः तिजारा इति, अत्रापि प्रेमपीठः इति कश्चन पीठः वर्तते, तेपि मध्वाचार्यसम्प्रदायप्रवर्तकाः अत्रापि वर्तते, परन्तु बहुतरं बाह्यः बाह्य न दृश्यते तावदेव वर्तन्ते।
यथा मीरा इत्यादीनां उल्लेखः कृतः, तर्हि मठेषु किमर्थं महिलानां तावत् योगदानम् अपि च शिक्षा प्रवर्तते, तत्र किं कार्यम्?
प्रवर्तते एव, वर्तते एव। पश्यता श्री उमाभारतीजी या वर्तते गुरुणामेव शिष्या, गुरुभ्यः एव सन्यासं स्वीकृतवन्तः। इतः पर्यन्तं किम् आवश्यकं?
तर्हि अग्रे प्रश्नः वर्तते, अविरतौ प्रवासः भवताम् अहर्निशं धर्मप्रचारः मठाधिपत्यस्य गुरुत्तरं दायित्वं च एतेषाम् अपरिमितकार्याणां मध्ये पूज्यचरणानां निभृतः कालः कः? तथा च कथं स्वस्मै भगवदाराधनाय स्वाध्याय च कृते समयः लभ्यते. एतेनैव सह अस्य अशान्तस्य आधुनिक युगस्य युवानः कथं स्वचित्तं स्थिरं कुर्युः अत्र भवदीय
मते. आकृष्टः एव. अपि च प्रत्यहं पाठप्रवचनमपि भवति. गुरुभिः संस्थापिता विद्यापीठः बेङ्गलूरुनगरे 70 वर्षाः अभवन् तस्य विद्यापीठस्य. इदानीं सर्वत्र इदानीं केन्द्रीयविश्वविद्यालये यः कुलपतिः वर्तते सोऽपि तथैव सञ्जातः. बहवः विद्वांसः देशे सर्वत्र व्याप्ताः वर्तन्ते. तत्र द्वादशवर्षीयः पाठः स्वयम् अस्माभिरेव क्रियते शिष्यानां कृते. इदानीमपि वर्तन्ते अद्यापि पाठः सञ्जातः. 20 विद्यार्थिनः सन्ति अस्माभिः साकमेव. प्रत्यहम् अस्माभिः साकमेव ते सञ्चारं कुर्वन्ति. अस्माभिरेव सः पाठ्यते. प्रवचनादिकं पूजा आनीयं सर्वमपि भवति. रात्रौ सार्ध 11 वादने स्वापः भवति. प्रातः 4 चतुर्वादनवेलायामेव उत्थाय नित्यानेकाः सम्पाद्यते. प्रभूतसमयः प्रभूतः वर्तते. सञ्चारमध्ये पाठप्रवचनादिकं भवति. इदानीम् आन्लैन् द्वारा कर्तुं शक्यते सर्वमपि.
अद्यत्वे युवानः तेषां चित्तम् एकाग्रं नास्ति, कथं ते कुर्युः?
अहं न तथा चिन्तयामि. इदानीमपि सर्वमपि भवति अस्ति च. तेपि यथा साध्यं ते कुर्वन्ति.
रील्स् जनाः अधिकं पश्यन्ति, तत्र एकाग्रता न वर्तते.
रील्स् दर्शने एकाग्रता वर्तते.
झटिति झटिति
एवं रील्स् दर्शने एकाग्रता एव अस्ति. एकाग्रता नास्ति इति न, परन्तु स्थानं व्यत्यस्तमभवत् तावद्
यत्र उत्साहः तत्र
एवं तावद्.
अस्माकम् आकाशवाण्याः ये श्रोतारः सन्ति तेषां कृते सन्देश.
वयं तु आस्तिकाः. भगवदाराधनमेव परमो धर्मः इति मन्यमानाः. अस्माकं पूज्यगुरवः जगद्गुरवः श्रीमन्मध्वाचार्याः भगवत्पूजा कथं करणीया इति उपदेशं कृतवन्तः. स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमो धर्मः. भगवदाराधनं कर्तव्यं, परं कथं? स्वविहितवृत्त्या. भगवान् श्रीकृष्णः उपदिदेश स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः इति. भगवदाराधनं केवलं मन्दिरमध्ये एव न, अपि तु स्वकर्मणा. प्रतिस्मृहित विहित वर्णाश्रम आचारः. अपि च जीवनार्थं वृत्त्यर्थं या वृत्तिः स्वीकृता, यत् कर्म स्वीकृतं, तदपि भगवत्पूजा रूपेण भवेत्. तत्र वञ्चनादिकं नैव भवति. भगवत्पूजायां यः कोऽपि वञ्चनान् न करोति. वृत्तिरपि वृत्तिजीवनमपि भगवत्पूजा स्यात्, तदा तत्रापि वञ्चनादिकं नैव भवति. इदं भगवत्पूजा कथं भवति? ईश्वरः सर्वभूतानां हृदये अर्जुन तिष्ठति. अस्माकं वृत्त्या वयं सर्वहृदय गुहस्थितं भगवन्तं पूजयामः इति मत्वा सर्वेपि स्वकर्म कुर्युः. आध्यात्मिकसाधनं पृथक्, सामाजिकजीवनं पृथक् इति न भवेत् इति गुरूणाम् उपदेशः. तमेव वयम् इदानीं पुनरुच्चारयामः.
धन्यवादाः. भवन्तः स्वकीयम् अमूल्यमपि नैजं समयं कल्पितवन्तः. एतदर्थं पुनः आकाशवाणीपक्षतः धन्यताम् आविष्करोमि.
आभारभावभरिता स्मः वयम् श्रीस्वामिपादम् प्रति. धन्यवादाश्च सुश्रीनिध्यै. माननीयाः श्रोतारः, सम्प्रति वयम् संस्कृतदिग्दर्शनप्रभागम् प्रति गच्छामः, यत्र डाक्टर् साधना शर्मा भगिनी अस्मान् सूचयति किन्नु खलु प्रचलति संस्कृतजगति, के किञ्च कुर्वन्ति, कुर्वन्तश्च सन्ति संस्कृतस्य प्रचारप्रसाराय इति.
केन्द्रीय संस्कृत विश्वविद्यालयस्य श्री सदाशिव परिसरे अंशकालिक शिक्षक पदानां चयनार्थम् अगस्त मासस्य 3 दिनाङ्के प्रत्यक्ष साक्षात्कारः भविष्यति. काशी हिंदू विश्वविद्यालयेन राजा ज्वाला प्रसाद विद्यावारिध्युत्तर शोधवृत्त्यर्थम् आवेदनानि आमन्त्रितानि. उत्कल विश्वविद्यालये संस्कृत विषये 3 रिक्तपदाः घोषिताः. श्री विश्वनाथ गुरुकुल संस्कृत महाविद्यालये विविधेषु शिक्षक पदेषु आवेदनानि आमन्त्रितानि, तथा चित्रकूट स्थिते गुरुकुले च व्याकरणाचार्य पदाय अपि आवेदनम् आमन्त्रितम्. कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयस्य शिव प्रसाद डिग्री महाविद्यालये डॉक्टर पवन कुमारः राष्ट्रीय सेवा योजनायाः कार्यक्रम पदाधिकारी नियुक्तः. अस्मिन्नेव विश्वविद्यालये आगामिनि 3 दिनाङ्के शास्त्र संवर्धिनी परिषदः आयोजनं भविष्यति. उपशास्त्री शास्त्री आचार्य पाठ्यक्रमेषु प्रवेशार्थम् आवेदनस्य अवधिः विस्तृतः. ज्ञानभारतम् अभियानस्य तथा महर्षि पाणिनी संस्कृत वैदिक विश्वविद्यालयस्य संयुक्त तत्वावधानेन पाण्डुलिपि केन्द्रस्य शुभारम्भः पाण्डुलिपि सम्मेलनं च सम्पन्नम्। भारतीय ज्ञान परम्परा विषये आन्तर्जालिक शिक्षक विकास कार्यक्रमः भविष्यति 17 20 अगस्त पर्यन्तम्। अपि च संघलोक सेवा आयोग परीक्षार्थीनां कृते संस्कृत साहित्यस्य ऑनलाइन पाठ्यक्रमः 14 अगस्त तः प्रारभ्यते।
धन्यवादाः डॉक्टर साधनायै। स्नेहपूर्णाः श्रोतारः, वयं सर्वेऽपि जानीमः यत् बालाः अस्माकं जीविताः अमूल्यनिधयः भवन्ति। तेषां मार्गदर्शनाय बालमनोवल्लरी इत्याख्ये अग्रिमे भागे अस्ति डॉक्टर सुषमा वर्या।
बालाः, अद्य वयं एकां आदर्शमयी शिक्षां प्राप्नुमः। वृक्षाः सत्पुरुषाः इव। पर्यावरण संरक्षणस्य विषये एका प्रदर्शनी विद्यालये आयोजिता अस्ति। छात्राः ताम् प्रदर्शनीम् पश्यन्ति, शिक्षकेण सह संलापम् च कुर्वन्ति। श्रीमन्, अहम् जीवशास्त्रस्य पुस्तके पठामि यत् वृक्षाः शुद्धम् वायुम् यच्छन्ति। श्रीमन्, मम माता अपि वदति यत् वृक्षाः पूज्याः भवन्ति। अध्यापकः वदति, प्रियछात्राः, सत्यम्, वृक्षाः शुद्धं वायुं, फलानि, पुष्पाणि च सर्वमपि यच्छन्ति, अतः ते पूज्याः। छायायाम् अन्यस्य कुर्वन्ति तिष्ठन्ति स्वयं आतपे, फलानि अपि परार्थाय वृक्षाः सत्पुरुषाः इव। दश कूप समा वापी, दश वापी समः हृदः, दश हृद समः पुत्रः, दश पुत्र समः द्रुमः। परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः, परोपकाराय दुहन्ति गावः, परोपकाराय इदं शरीरम्। अहो, ईशां वरमं जन्म, सर्वं प्राणिम् उपजीवनं सुजनस्य इव, येषां वैः विमुखाः यान्ति नार्थिनः।
उत्तम प्रस्तुत्यै सुषमायै साधुवादाः। सहृदयाः श्रोतारः, भारतस्य वैविध्यमेवास्ति भारतस्य वैशिष्ट्यम्। एतासु एव विशेषतासु भाषागतापि अस्ति एका अन्यतमा विशिष्टता। नाना भाषा भाषिणः सन्तोऽपि वयं स्मः एकात्मभूताः भारतीयाः। इदानीम् एकं भारतं श्रेष्ठं भारतम् इति प्रभागविशिष्टं प्रति चलामः, यत्र मुदिता वेतालः संस्कृत हिन्दी बंगालीति भाषात्रये पञ्चवाक्यानि उपस्थापयति त्रिवर्णध्वजविषये।
प्रथमं वाक्यमस्ति, त्रिवर्णध्वजः भारतस्य राष्ट्रियध्वजः अस्ति। पहला वाक्य है, भारत का राष्ट्रीय ध्वज तिरंगा झंडा है। बंगाली में भारतेर जातियो पोता का तिरंगा पोता का। द्वितीयं वाक्यम अस्ति, राष्ट्रीय ध्वजस्य मध्ये नील वर्णस्य चक्रह अस्ति। दूसरा वाक्य है, राष्ट्रीय ध्वज के बीच में नीले रंग का चक्र है। बंगाली में जातियों पोताकार माझखाने एकटी नील वृत्त रहेछे। तृतीयं वाक्यम अस्ति, ध्वज मध्ये चक्रे चतुर्विंशति ही अराह संति। तीसरा वाक्य है, ध्वज के मध्य में स्थित चक्र में 24 तीलियां हैं। बंगाली में जातियों पोताकार माझखाने अवस्थित चक्रे 24 मुखपात्र रहेछे। चतुर्थम वाक्यम अस्ति, एते अराह अहोरात्रम परिश्रमस्य परिचायकाः सन्ति। चौथा वाक्य है, यह तीलियां अहर्निश परिश्रम करने का परिचायक हैं। बंगाली में एई मुखपात्र किंबा अहर्निश दिन रात्र परिश्रमेर लक्षण। पंचमं वाक्यम अस्ति, देशे राष्ट्रीय उत्सवेषु त्रिवर्ण ध्वजस्य ससम्मानम् उत्तोलनम् भवति। पांचवा वाक्य है, पूरे देश में राष्ट्रीय उत्सवों पर तिरंगा झंडा फहराया जाता है। बंगाली में सारा देशी जातियों उत्सवे तिरंगा पोता का उत्तोलन करा हुए। धन्यवादाः।
धन्यवादाः मुदिताये। अयभो सुरभारती समुपासकाः श्रोतारः, कार्यक्रम विषये भवतां भवतीनाञ्च प्रतिक्रियाः अस्मान् सुतरां सम्प्रेरयन्ति। सततं भवन्तः भूरि सन्देशान् सम्प्रेषयन्तु इति कामयामहे च वयम्। संस्कृत साप्ताहिकीति विषये निज विचारान् ईमेल माध्यमेन सम्प्रेषयन्तु भवन्तः इति अपि निवेद्यन्ते। अस्माकम् ईमेल संकेतोऽस्ति samskritasaptahiki@gmail.com इति। इदानीम् अत्रैव अवसानं संघोषयामः। अग्रिमे सप्ताहे अभिनवाङ्कम् एकम् आदाय पुनरागमिष्यामः। तावदस्तु, समेषां शुभं मङ्गलञ्च।